इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। राष्ट्रपतिः द्रौपदी मुर्मू अद्य स्वीय यात्रायाः द्वितीये चरणे अल्जीरिया देशस्य त्रिदिवसीय यात्रायाः समापनानन्तरं मारिटानिया देशं प्रति प्रस्थास्यति। राष्ट्रपतिः मुर्मू अल्जीरिया नेतृत्वेन प्रतिनिधिमण्डलैः च सह विविधानि द्विपक्षीयोपवेशनानि विधाय भारत अल्जीरिया सम्बन्धाय प्रमुखं प्रवर्धनं दत्तवती। अस्माकं संवाददात्रानुसारि राष्ट्रपतिः मारिटानिया देशस्य एकदिवसीय यात्रायां बहुविध कार्यक्रमे भागं भजिष्यति। सा स्वीय मारिटानिया देशस्य समकक्षेण मोहम्मद औलद गजौनी इत्यनेन सह अन्यैः नेतृभिः च सह द्विपक्षीयोपवेशनं करिष्यति। राष्ट्रपतिः मुर्मू मारिटानिया देशे भारतीय प्रवासिभिः सह अपि संवादं करिष्यति। विदेशमन्त्रालयेन उक्तं यत् राष्ट्रपत्युः अल्जीरिया देशस्य भ्रमणम् ऐतिहासिकम् अभवत्। वार्ताहरान् सम्बोधयन् सचिवः श्रीचटर्जी अवदत् यत् भारतं ब्रिक्स संघे अल्जीरिया देशस्य सदस्यतायाः विषये समर्थनं प्रदास्यति, यदा शिखरसम्मेलने एषः विषयः आन्यते। राष्ट्रपतिः अल्जीरिया मारिटानिया मलावी त्रयाणां देशानां यात्रायामस्ति। तस्याः यात्रायाः तृतीये चरणे राष्ट्रपतिः श्वः मलावीदेशं गमिष्यति। एतेषां राष्ट्राणां भ्रमणम् अफ्रीकादेशैः सह भारतस्य सम्बन्धं सुदृढं विस्तृतं च कर्तुम् अस्ति। नेशनल कॉन्फ्रेंस दलस्य नेता उमर अब्दुल्लाह अद्य जम्मूकश्मीरस्य केन्द्रशासितप्रदेशस्य मुख्यमन्त्रिणः शपथग्रहणं करिष्यति। उपराज्यपालः मनोज सिन्हा श्रीनगरस्य शेरे कश्मीर अन्ताराष्ट्रिय सम्मेलन केन्द्रे प्रातः सार्ध एकादशवादने अब्दुल्ला महोदयाय स्वमन्त्री परिषदा च सह शपथग्रहणं कारयिष्यति। सद्यः एव सम्पन्ने विधानसभा निर्वाचने नेशनल कॉन्फ्रेंस दलस्य विजयानन्तरं उपराज्यपालः अब्दुल्ला महोदयं सर्वकार निर्माणाय आमन्त्रितवान् आसीत्। महाराष्ट्रे आगामिनः मासस्य विंशे दिनांके एकस्मिन् चरणे अथ च झारखण्डे त्रयोदश विंशति दिनांकयोः द्वयोः चरणयोः विधानसभानिर्वाचने आयोजयिष्यति। तत्रैव मतगणना अग्रिममासस्य त्रयोदशे दिनांके भविष्यति। ध्यातव्यमस्ति यत् निर्वाचनायोगेन ह्यः महाराष्ट्र झारखण्ड विधानसभानिर्वाचनानां कार्यक्रमाः उद्घोषिताः। ह्यः नवदिल्ल्यां निर्वाचन कार्यक्रमान् उद्घोषयन् मुख्य निर्वाचनायुक्तः राजीव कुमारः समुदीरितवान् यत् अष्टाशीत्यधिक द्विशत सदस्यात्मिकायाः महाराष्ट्र विधानसभायाः निर्वाचनस्य अधिसूचना मासस्यास्य द्वाविंशे दिनांके प्रख्यापयिष्यते। तदनु प्रत्याशिनः नवविंशति दिनांकं यावत् नामांकन पूरण प्रक्रियां कर्तुं शक्नुवन्ति। झारखण्डराज्ये प्रथमचरणीय मतदानाय अधिसूचना अस्मिन् एव मासे अष्टादश दिनांके प्रसारिता भविष्यति। प्रत्याशिनश्च पञ्चविंशति दिनांके नामांकन पत्रं पूरयितुं शक्नुवन्ति। एतस्मिन् राज्ये द्वितीय चरणीय मतदानाय अधिसूचना अस्य मासस्य द्वाविंशतिः दिनांके प्रसारयिष्यते। नवविंशतिः दिनांके च प्रत्याशिनः तत्सम्बद्धानि पत्राणि प्रपूरयितुम् अर्हाः भविष्यन्ति इति। निर्वाचनकार्यक्रमाणां घोषणया साकमेव उभयोः राज्ययोः आदर्शाचारसंहिता क्रियान्विता जाता। आयोगेन अत्रावसरे अनेकेषु विधानसभासनेषु द्वयोः लोकसभासनयोश्च उपनिर्वाचनस्य कार्यक्रमाणां नियमावल्यः प्रसारिता। क्रिकेट क्रीडायां तिसृणां भारत न्यूजीलैंड निकषस्पर्धायाः प्रथमे द्वन्द्वे अद्य भारतं न्यूजीलैंड दलं बेंगलुरुस्थिते एम चिन्नास्वामी क्रिकेट क्रीडांगणे सम्मुखीकरिष्यति। इति वार्ताः।